कः अद्यतनसुभाषितं पठति? एम् वि राव् महोदय पठति वा?
आम्, तत्र मित्र न वक्तव्यं यत्र नास्ति चतुष्टयं, ऋणदाता च वैद्यश्च श्रोत्रिय सजलानदि. दट् मीन्स् वेर् दि फोर् आर् नाट् देर् इट् इस् नाट् वर्त् लिविङ्ग्. एण्ड् दि पर्सन् हू केन् गिव् लोन् ए डाक्टर् ए ब्राह्मिन् अण्ड् ए रिवर्. पदच्छेदमि तत्र देर् मित्र फ्रेण्ड् न नाट् वक्तव्य स्टे आर् लिव् इन् यत्र वेर् नास्ति नान् एक्सिस्टेण्ट् चतुष्टयम् ऋणदाता मनी लेण्डर् वैद्य फिजिशियन् स्कालर् स्कालर् वाटर् स्कालर् रैटर् सजलानदि फोर् आर् नाट् देर् मनी लेण्डर् डाक्टर् स्कालर् अण्ड् फ्लोयिङ्ग् वाटर् यु शुड् नाट् स्टे देर्.
उत्तम उत्तम, धन्यवादः. ओके, न वदति चेत् कृपया म्यूट् मध्ये स्थापयतु.
What is color water? I thought it is color writer. Shrotriya?
Shrotriya is just a scholar, someone who is knowledgeable.
Yeah, but what is that water doing there? Water should be in flowing river, not in the scholar.
Oh, Sajala Nadi, just there should be water nearby, wherever you stay.
No, Shrotriya says a scholar water.
No, they're not connected.
Okay. Thank you.
Yep. Okay, yep. So like Mahodaya said, wherever you stay, there should be, wherever you go to live, there should be these four things. Money, a doctor, a scholar, and water. Iti. Okay, Prashnam Stiva? Okay, Astu. Adhyatana Patyakramaha Asti. गृहपाठं पश्यामः, तदनन्तरं पुनस्मरणमपि अस्ति, तदनन्तरं विक्रमवेतालः कथा अस्ति, अन्तिममस्ति अद्य, तदनन्तरं विभक्तिवल्लवी करिष्यामः. ओके, इदानीं पुनस्मरणमस्ति, पुनस्मरणं कृत्वा तदनन्तरं गृहपाठं करिष्यामः. अस्तु इतोपि समयः आवश्यकं वा डू वी नीड मोर टाइम
आं भगिनी
ओके
हलो हलो
यस हलो वी कैन हियर यू भगिनी
थैंक यू
अस्तु इतोपि समयः आवश्यकं वा वी नीड मोर टाइम
ऑलमोस्ट डन भगिनी वन मिनट
ओके ओके अस्तु अस्तु ओके अस्तु पश्यामः प्रथममस्ति भवती किमर्थं ब्लैंक पश्यति किं भवति
माम पश्यति द्वितीय
माम पश्यति उत्तमं माम पश्यति अहं गमनार्थं ब्लैंक एव आह्वयामि
भवन्तं एव
भवन्तं भवन्तं उत्तमं ब्लैंक सह दूरवाणी मूल्यं किम्
सा दूरवाणी मूल्यं किम्
न
एतत् एतत् एतत्
न न न सः किं भवति
ओके सः ओके दिस् तस्य दूरवाणी मूल्यं
दूरवाणी किं भवति
फोन्
दूरवाणी षष्टिभक्ति किम् आं दूरवाण्याः तस्य दूरवाण्याः मूल्यं किम् His phone's price, Kim, how much? Or what is the price of his phone? Tasya Duravanyaha Mulyam Kim.
Kim, correct.
Okay, astu. Tanantaram, Kaha Balakaha Pustakani Adhyapakaha Swikrutavan. Question mark.
Balakasya Pustakani Adhyapakaha Swikrutavan.
कस्य बालकस्य पुस्तकानि अध्यापकः स्वीकृतवान् उत्तमं हूस् विच् बाय् बुक् डिड् द टीचर् टेक् ओके सस्यं परितः मृगाः पिबन्ति
सस्यं परितः मृगाः पिबन्ति द्वितीय
उत्तमम् उत्तमं सस्यं
वाट् इस् सस्यम्
A small tree.
Bush.
A bush, yes. Okay. People show interest in Sanskritam.
Jana Sanskriti.
Iccha.
Jana Sanskriti. Ruchi Pradarshayati.
Uttama, Uttama. Jana Sanskriti Pritim.
प्रदर्शयन्ति आर् यू जी प्रदर्शयति सिंगुलर् आर् प्लूरल्
प्रदर्शयन्ति उत्तमं प्रदर्शयन्ति जनाः प्रदर्शयन्ति जनाः संस्कृते प्रीतिं प्रदर्शयन्ति
भगिनि वन् क्वेश्चन् केन् ऐ आस्क् अ क्वेश्चन्
आम्
या सो द फस्ट् थिङ्ग्
आम् आम्
Yeah, Bhavati Kimartam Aham Pashyati. So, it can be even Chaturthi, right? Mahyam. Bhavati Kimartam Mahyam Pashyati. Why are you showing it to me?
No, no, no. The question is, why are you looking at me?
Oh, okay. Okay. Okay, okay, sorry.
So, Kimartam Mam Pashyati. Why are you looking at me?
Okay, okay.
Yep. Okay, next one. Is your city nearby?
Tasya Nagaram.
Is your city?
Bhavataha.
Nagaram Samipe Astiva.
Uttama. Bhavataha Nagaram Samipe Astiva. Atva Parshve Astiva. Kimapi. Okay. Tanantaram, the girl stands behind the mother.
Bhavati, Amba,
Bhavati na.
Balika.
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 Tasyaha, Ambasya, Prishtataha.
Prishtataha.
Okay. Balika, Ambayaha, Prishtataha, Tishtati.
Tishtati, okay.
Ambayaha, Prishtataha, Tishtati.
Tishtati okay. is like just sitting, right? Just standing. Tishtati is a...
Yeah, Tishtati is standing or waiting.
Okay.
Tishtati is getting up.
Okay. Tadanantaram, do you have this type of book in your home?
Etat pustakam gruhe astiva.
Bhavan gruhe.
Bhavatyaha.
Bhavatyaha gruhe.
एतत् पुस्तकम् अस्ति वा,
प्रकारः पुस्तकम् अस्ति वा
एतस्य?
किञ्चित् किञ्चित् भिन्नमस्ति भवतः गृहे
अस्य प्रकारः
ईदृश पुस्तकम् अस्ति वा? This type of book, ईदृश.
What is this? Is tat, right? Or etat?
Etat. But this etat. Type of book is ईदृश. ईदृश पुस्तकम् or ईदृशं पुस्तकम्.
ईदृश is this type, तादृश is that type, यादृश is this type.
Yep. ईदृशं पुस्तकम्.
Can you repeat the answer, Bhagini?
भवतः गृहे ईदृशं पुस्तकम् अस्ति वा? अस्तु वा, ओके. अन्तिमम्, ऐ लैक् दिस् टैप् आफ् पेन्.
अहम् ईदृशं लेखनीं रोचयति.
ओके, अहम् ईदृशीं लेखनीम् इच्छामि. अहम् ईदृशीं लेखनीम् इच्छामि.
लैक् इस् रोचते, रैट्?
Yeah, you can also use rochate. So if you use rochate, use chatutya bhakti. So mahyam idrishim lekhanim rochate. Wow. Okay, kutra api prashnam asti va?
No, Bhagini. I got confused in how to ask the question doing this type of work.
Which question?
Like, it will be easier to change the vibhakti if we answer like kasya kim kutra kada to figure out what vibhakti to use. Like on the third one. So
okay. Okay. This one, it doesn't use, okay, the question it uses kim, but saha, it means him, so his, and then telephone. So both of these are shashti bhakti, but they are two different objects. Saha is different, from Duravani. But number four, the kaha and bala kaha is about the same object.
So that is where I got confused. So how to figure out what to look, what to look in the sentence?
So the first one is saha. Saha is a different lingam than Duravani.
Okay. Yeah.
That's when you know that's about something else. And then kaha and bala kaha, kaha is the question form. So since this kaha is the same lingam as the bala kaha, then you know it's both talking about the same object.
So if it is same object...
And it's also about context. What are you supposed to do? What is the question, Maudil?
If it is same object or two different objects, we still, I mean, what is the difference? I mean, how we are supposed to address if these two different objects and the same object? For example, kaha bala kaha is same punlingam, saha duravani is punlingam and strilingam. So what is it we are supposed to do differently in these two cases?
No big difference. You just do the same thing, just the meanings are different.
Okay.
Yep, there are two, here in this sentence, there are two different objects that use shashti bhakti. But this one, only one object that's used shashti bhakti.
Okay.
Yep.
Bhagini, you use a reference from some book or create your own?
Some of them I create on my own. Some of them I look at the Abhyasa Pustakam or the Vibhakti Vallari or some other worksheets. Okay. Idanim Gruhapatam Pashyamahava. Okay. Ek animation. ओके अस्तु प्रथममस्ति ब्लैंक उभयतः वादकौ स्तः
गायकस्य उभयतः
गायकम् उभयतः वादकौ स्तः उभयतः अस्ति चेत् परितः अस्ति चेत् द्वितीया विभक्ति
Ditya, we learned that in the first chapter of the Vibhakti Vallari.
When do we use Shashti?
Shashti is for all the other directions. We only use Ditya Vibhakti for Ubhayataha and Paritaha.
Okay.
So Ubhayataha is around or on both sides?
Both sides.
Both sides.
And around is paritaha.
Paritaha. So gayakam ubhayataha? Yes, gayakam ubhayataha vadakau. Okay. Tanantaram blank aham kesha prasadhanam karomi.
Kankitaya.
Ya uttamam. Kankitaya. Kankitaya itikte kim?
Kum.
Yeah, with
the kum.
Tritya vibhakti. Uttam. With the kum. Uttam. Kankitaya. Okay. Rakshakaha blank bhavanasya rakshanam kurvanti.
Jagarukataya.
Jagarukataya. Jagarukataya. Uttamam.
Tritya na?
Tritya.
भगिनी वचन जागरूकताभिः
आम् यप् सो सिन्स् एड्जेक्टिव् यप्
केन् यू रिपीट् दट्
जागरूकताभिः भवनस्य रक्षणं कुर्वन्ति
जागरूकताभिः इस् बहुवचनं सो रक्षकाः मेनि सोल्जर्स् आर् प्रोटेक्टर्स् सो जागरूकताभिः बहुवचनं
जागरूकता
जागरूकता इज अवेयरनेस सो अवेयरनेस के नॉट हैव बहुवचन
ओ ओके
जागरूकतया इज राइट
जागरूकतया एव वा ओके जागरूकतया
गुड पॉइंट वेरी गुड पॉइंट एक्चुअली
ओके उत्तम उत्तम जागरूकतया एव जागरूकतया एव ओके तदनन्तरं रोहन् महोदयः सह चर्चां कृतवान्
छात्रेण
छात्रया तत्र मा गच्छतु ब्लैंक अग्निस्पर्शः दग्धं भविष्यति
अग्निस्पर्शेन दग्धं भविष्यति
उत्तमम् अग्निस्पर्शेन दग्धं भविष्यति ओके सम्यक् तदनन्तरं संस्कृतन्तः
संस्कृततः आङ्ग्लभाषा परिवर्तनं करोतु इति अस्ति. Without teeth, the old man cannot eat.
दन्तैः विना वृद्धः न खादति.
दन्तैः विना वृद्धः न खादितुं शक्नोमि.
शक्नोति.
शक्नोति.
उत्तमम्. दन्तैः विना वृद्धः खादितुं न शक्नोति. Okay, uncle bought a sari for me.
Dantaha or dantaihi?
Dantaihi.
Can you repeat, Bhagini? Dantaihi vina vriddham.
Dantaihi vina vriddaha khaditam na shaknoti.
दन्तैः
मातुलः मह्यं शाटिका क्रीतवान्.
बहुवचनं
दन्तः दन्तैः न दन्तः दन्ताः दन्तेन दन्तैः
दन्तः दन्ताः दन्तैः
दन्तैः तृतीयविभक्ति बहुवचनं.
ओ तृतीयविभक्ति.
अनन्तरं मातुलः मह्यं शाटिका क्रीतवान्
नयति भगिनी नयति
नयति मीन्स् टु ब्रिङ्ग् सो क्रीतवान् मीन्स् टु बै बाट्
भगिनी इस् इट् शाटिका और् शाटिकां
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 तो मातुलः
क्षम्यतां मह्यं शाटिकां क्रीतवान्
चतुर्थी फार् मी मह्यं शाटिकां. ओके
ओके द सन् डस् नाट् लैक् टु कुक्
पुत्रः पुत्राय पाकं न रोचते.
उत्तमम् उत्तमं पुत्राय पाचकं न रोचते अथवा पुत्रः
पाकाय न रोचते
पचनं कर्तुं न रोचते ऐ मीन् न इच्छति तदेव सम्यक् बोत् आर् फैन् पुत्राय पाचकं न रोचते और् पुत्रः पाचनं कर्तुं न इच्छति.
ओके पाचनं कर्तुं न इच्छति.
ओके तदनन्तरं मै ग्राण्ड् मदर् लैक्स् लड्डु.
मम माता मह्यं इच्छति
लड्डुं रोचति.
उत्तमं मम माता मही लड्डुकम् इच्छति.
इच्छति आर् रोचति
इच्छति फोर् रोचति यूड् से मम माता मह्यै लड्डुकं रोचते.
वै लड्डुकं भगिनी वै नाट् लड्डुम् इस् इट् लड्डुम् आर् लड्डुकं
लड्डुकम् इस् इन् संस्कृतं
लड्डुकं
लड्डुकं जस्ट् सिङ्ग्युलर् लड्डुकानि प्राबब्लि. ओके अन्तिमं एव्री डे आफ्टर् वेकिङ्ग् अप् ऐ प्रे टु गाड्
प्रतिदिनं प्रतिदिनात् अहम् उत्थाय देवाय प्रार्थयामि.
प्रतिदिनं उत्थाय प्रतिदिनम् उत्थाय देवं नमस्करोमि किमपि.
Uttitva is not there, Uthaya, because of
Uthaya.
Sarga.
Aham is not required?
You can say Aham, Aham, Devam, Namaskaromi, or Prathayami.
It's understood also.
Bhagini, Pratidinam, not Pratidine, is it?
Pratidinam, Pratidinam.
Okay.
Pratidinam, Uthaya, Aham, Devam, प्रार्थयामि. अस्तु. कुत्रापि प्रश्नमस्ति वा?
वन् क्वशन् भगिनि.
आम् अस्तु महोदय.
अङ्कल् बाट् ए सारि फार् मी, केन् वि यूस् मातुलः मम कृते शाटिकां क्रीतवान्?
Yep, that's also fine.
Okay, thank you.
Mama Kruti.
Yep, for me. For me, that's also fine. Okay. Itopi Prashna Mastiva?
These are very good practice, Vagini.
Okay, asti. Danyavadaha, Vagini. Okay. Idaniyam... कथां पश्यामः. ओके अस्तु. सो वी आर् आन् द लास्ट् पेज्. हु वुड् लैक् टु रीड् द the first paragraph? Kaha patati?
I could do it.
Astu indu bhaini patati va? Anyatha
anyatha tesham haste aduna yadasti tadapi nashtam abhavishyat nashtam abhavishyat tathaiva mayura dhvajena pratitam asit jay tejah स्वर्णधाराराज्यस्य राजा भवतु. मां वैकुण्ठिकराज्यस्य राजान् करोतु इति. किन्तु विक्रसेनः तद्विपरीतम् आचरितवान्. स्वर्णधाराराज्यं वैकुण्ठी काराज्यं जयते जाय प्रादात. तथैव वैकुण्ठीराज्यं स्वर्णधाराराज्यस्य अधीने भवति इत्यपि आदिष्टवान्
आदिष्टवान्
It is not, I thought there was a dha underneath the dha, you know, that's why. The Adishtavan. Kimidam Vikramasenasya Kanishtak Putre Pritim Tatha Pakshapata Bhavana Charna Pradarishyati. Yadi Mama Prashnanam Samadhanam Nyatyapi Navalishyasi Tarahi Tavashiraha सहस्रशकलेषु छिन्नं भविष्यति.
उत्तमम् उत्तमम्. ओके सो तत्र अस्ति. सो इन् द बिगिनिङ्ग् मयूरध्वजः सजेस्ट् देट् हि विल् टेक् केर् आफ् वैकुण्ठिका राज्यम् एण्ड् जयतेजः टेक्स् केर् स्वर्णधारा राज्यम्. But the king did the opposite. Tad viparitam acharitavan. So he did the opposite. And the opposite was he gave Swarnadhara Rajyam to Mayura Dvajaha, which is, I think, his own Rajyam. The Swarnadhara Rajyam is where they are now. He gave that to Mayura Dvajaha. And he gave Vaikantika Rajyam to Jayatejaha. And then the question is kimidam ikana. So why did the king not show partiality? Why did he not show favoring one side is the question. And then so after this is the question that Vetalaha asked Vikram. And if he has to answer, if not, his head will be blown up into 100 pieces. Iti?
1000 pieces.
Asti. Okay.
If he knows and doesn't answer, then his head will break into 1000 pieces.
If he knows and doesn't answer, then his head will blow up. ओके तदनन्तरं द नेक्स्ट् पेराग्राफ् हू लैक् टु रीड्
अहं पठामि सूक्ष्मम्
अस्तु पठतु सूक्ष्मभगिनी
तत् श्रुत्वा राजा विक्रमः यत्किमपि राज्यं तदैव विकसितं भवति यदा तस्य राज्यस्य राजा प्रकृतस्थित्या असन्तृप्तः सन् स्वराज्यस्य विकासाय प्रयतमानः भवति सः स्वप्रजानामपि विकासाय भावियोजनाः कुर्यात् तथैव राज्ञः सर्वदा सानुकूलदृक्पथं स्यात् तदैव राज्यस्य विकासः सम्भवति यदि राजा एव प्रतिकूलबुद्धिं दर्शयति तर्हि कथं विकासो भवेत् तस्मादेव जयतेजः सन्तृप्तिभावनां प्रादर्शयत् मयूरध्वजस्तु भावियोजनां कृतवान् अग्रे स्थित्वा सैन्यस्य नेतृत्वमूढवान् चक्रवर्तिनः सर्वविधगुणान् प्रकाशयत् अत एव राजा विक्रमसेनः मयूरध्वजाय स्वर्णधाराराज्यं प्रायच्छत् तदेव ज्ञातं यत् जयतेजाय तादृशगुणवर्धनार्थं कश्चन समयः अवश्यकमस्ति अत एव सः
कृपया म्यूट् मध्ये स्थापयतु
अत एव सः मयूरध्वज राज्यस्याधीने भवतु इति आदिष्टवान् न तु कनिष्ठपुत्रे प्रीत्या इदमाचरितं न वा पक्षपातबुद्ध्या इति समाधत्वान् विक्रमेण
तदेव तदेव भगिनि धन्यवादः ओके उत्तमं सो अनन्तरं विक्रमः वदति सो वेर् एवर् ए किङ्ग् अ किङ्ग्डम् विल् ओन्लि ब्लूम् वन् द किङ्ग् इस् हेपि एण्ड् स्टेबल् एण्ड् टेक्स् केर् आफ़् हिस् पीपल् इति अस्ति इस् दिस् इस् वट् विक्रमः सेस् एण्ड् देन् हि सेस् देट् द किङ्ग् गेव् जयतेजः द स्वर्णधाराराज्यं because he gave his own kingdom because in the beginning Jayatejah said he was satisfied was with whatever was happening in the kingdom so that is why he gave Jayatejah his own kingdom and he gave Mayuradhvajah Vaikantika Rajyam the kingdom next door because the neighboring kingdom because Mayuradhvajah said that we should prosper more we should think about improving in different ways so that's why he gave the neighboring kingdom so that he can be creative and then help that kingdom become successful iti so that is the meaning of what happened so far so in conclusion Vikrama says that there was no partiality it is just based on the strengths and their character okay tanantaram antimam just one sentence iti asti kaha patati
it if you don't mind vikramena एवं स मौनं परित्यज्य यदा समाधतं तदा वेतालः शवेन सह अदृश्यतां गतः यथा पूर्वं पुनः वृक्षमारूढवान्
Then Vetala will fly back to the tree.
Yes.
Someone knows the answer and doesn't tell, his head will break. So that is the reason. Since he has spoken, the Vetala has flown back along with the cars to the tree.
Correct. So, exactly. So Vetalaha, quietly he goes back to the tree. And then Vikrama has to go and chase him again. Okay. Kutrapi prashnam asti va?
No.
Okay. Astu. Tathaiva katha. Kshamyatam katha kinchit kathinam asit. Aham. Next time I will bring out a much easier katha. And then it will be easier for us to break down.
Kavya Bhagini, it was enjoyable, this one. It was quite good, actually.
Okay, yeah, I'm happy that this probably challenged you to think more, to think outside of your box.
Yeah, that's the main thing, yeah. And the other thing, I mean, there are some more of the Vikramaditya Vetal Kathas, isn't it?
No, yep, there's a lot more.
25, but the later versions, like Chandamama, has published more than 150, because every month they publish some story, which is not original story. They concocted a lot of stories to keep the serial going on. But original is Betala Panchaminshati, 25 stories of Betala. 25 stories.
Yeah, but you see, what I'm trying to say is that, you know, if we can sort of reach something that is difficult like this one, we will get our tongue around it and also make us think of more, you know, ways of making a sentence. That's what I was thinking about.
Because we have not really understood each and every use of every word and its bhakti. It is really difficult. Of course, I do agree it is a tough challenge. We should face it. But generally speaking, a little lower complexity might be, we will be able to understand much more. Here, for example, the whole para we summarize in one or two sentences instead of going through every word and its vibhakti. So, I felt that a little less complexity might be better, but I agree, it could be good to have such a challenge.
Yep, yep, okay. Okay, dhanyavadaha. Prashna nasti chet, vibhakti vallari karishyamaha. Okay. Okay, so last time, Gata Saptahe Chintayami, Panchami Vibhakti Karish Kritavantaha, Panchami Vibhakti Kritavantaha, Kinchita Punasmaranam Karishyamaha. So we will practice a few times using Panchami Vibhakti. So first, let's look at the Panchami Vibhakti chart on page 44. So on page 44, the Vibhakti Vallari, there's a chart and it gives Akaranta Pullingam, Balaha Balaha, Balat Balebhyaha Iti Bhavati, Strilinge Stringanasti, Navamsukalinge Pustakat Pustakebhyaha, Pustakam Pustakani, Balayaha Balabhyaha, Bala Balaha Balayaha Balabhyaha Iti Asti. So for now, we'll just look at the akarantaha and the akarantaha, and then the ikarantaha, ikaranta strilingam asti, gauri, gauryaha, gauryaha, gauribhyaha, iti bhavati. So just the akarantaha, akarantaha, and the ikarantaha, and the other one, we will look at the end. Okay, so ekanimesham. Okay, so now we'll just do some practice with Ekavachanam, Panchami Bhakti. So there will be a word on the screen. All you have to do is say the Panchami Bhakti of it in Ekavachanam. So Pratham Nasti, Seva Phalam Nasti. Seva Phalam Panchami Bhakti Kim?
Seva Phalakat. Seva Phalakat?
Seva Phalat.
Seva Phalat. Seva Phalat.
Seva Phalat. Seva Phalat.
Shunakat.
Simhat.
Simhat.
Simhat. Simhaha. Simhat.
Vanat.
Vanat. Vanat.
Kankanat.
Duravanyaha.
Nidanikaya.
Nidanikayaha.
Bhagini?
Am.
Duravani is like a Gauri.
Yes. Nidanikayaha. Okay, Nidanikayaha. Tanantaram?
Ankanyaha.
Padatranat. Napumsakalinga.
Kankatat.
Sharkarayaha.
Okay, idanim. Bahu Achana.
Pipilika Bia.
Padebhyaha. Gruhebhyaha. मार्जारेभ्यः द्विचक्रिकाभ्यः शिलाभ्यः लेखनीभ्यः वैद्येभ्यः उपनेत्रेभ्यः उत्तमम् ओके इतोपि अभ्यासम् आवश्यकं वा डु वी नीड् टु गो थ्रू मोर् वर्ड्स् ओर् वी केन् गो टु द वोकाब्युलरी
न आवश्यकं भगिनी
ओके अस्तु विभक्तिवल्लरी करिष्यामः ओके अस्तु सो लास्ट् टैम् कुत्र आसीत् वयम् ओ वि डिड् बीतः रैट् बीतिः ओके बीतिः वि डिड् हाफ् वे थ्रू बीतिः तत्र अस्ति यस्मात् बीतिः भवति तस्य पदस्य पञ्चविभक्तिः भवति सो इफ् बीतिः भीतिः इत्युक्ते किम् सो वर् देर् इस् फियर् वि यूस् पञ्चमीभक्ति उदाहरणमस्ति व्याघ्रात् जनाः भीताः भवन्ति व्याघ्रात् जनाः भीताः भवन्ति सो द पीपल् वर् स्केर्ड् आफ् द टैगर् व्याघ्रात् जनाः भीताः भवन्ति ओके पुनः करिष्यामः रावणः रामतः भीतः अस्ति सो रामतः केन् आल्सो बि रामात् रावणः रामात् भीतः अस्ति सो प्रश्नः अस्ति वा ओके ओके सेम् वे अस्तु सो हू अस्तु द्वितीयं क्रमेण करिष्यामः नरसिंह महोदय द्वितीयं करोति वा
आम् रावणः शत्रुतः भीतः अस्ति
महाराजः
शत्रुतः भीतः अस्ति
उत्तमं महाराजः शत्रुतः भीतः अस्ति अथवा शत्रुतः केन् आल्सो बि शत्रोः भीतः अस्ति उकारान्तः पुल्लिङ्गम् एकवचनमेव ओके उत्तमं महोदय तदनन्तरं प्रतिमा भगिनी
चोरः आरक्षकात् भीतः अस्ति
उत्तमं चोरः आरक्षकात् भीतः अस्ति तदनन्तरं शीला भगिनी
बालकः पिशाचात् भीतः अस्ति
उत्तमं बालकः पिशाचात् भीतः अस्ति तदनन्तरं सुषमा भगिनी न न क्षम्यताम् एमिरा महोदय
सज्जनः दुर्जनात् भीतः भवन्ति भवतु
उत्तमं सज्जनः दुर्जनात् भीतः भवति अस्ति किमपि उत्तमम् ओके तदनन्तरं सुषमा भगिनी
देव
देवाः राक्षसेभ्यः भीताः सन्ति.
उत्तमम् उत्तमम्. देवः राक्षसेभ्यः भीताः सन्ति. मोहन महोदय,
जनः चोरेभ्यः भीताः सन्ति.
उत्तमम्. जनाः चोरेभ्यः भीताः सन्ति. तदनन्तरम् इन्दु भगिनी. इन्दु भगिनी,
सर्वे कष्टानि, सर्वे कुतः अस्ति देवः कष्टानि, सर्वे कष्टानि.
ओके, पुस्तकानि पुस्तकेभ्यः कष्टानि.
कष्टेभ्यः भीताः सन्ति. शुड् ऐ बी यूज़ सन्ति?
यस्, सर्वे इस् एव्रीवन्. सर्वे कष्टेभ्यः भीताः सन्ति. उत्तमम्.
Bhagini, what is the meaning of that? Everyone is scared of hard work, or what is it?
Problems.
Problems. Okay, Chitra Bhagini.
Ajaha vyagrebhyah bhitaah santi.
Uttam. Ajaha vyagrebhyah bhitaah santi. Antimam Narasimha Mahodaya.
Vayam दृष्टेभ्यः भीताः सन्ति, भीताः स्मः.
उत्तमम् उत्तमं. वयं दृष्टेभ्यः भीताः स्मः. स्मः स्मरति वा इत्युक्ते किम् इति?
द्विवचनम्.
क्षम्यतां, वयं स्मः.
वयं स्मः,
अहम् अस्मि, वयं स्मः.
Can I ask you one thing, Kavi Bhagini? Kashtani is plural, isn't it?
Yes, Bahuvachanam.
Bahuvachanam. Why can't we use Kashtani instead of Kashtebhya?
Kashtani, Panchami Bhakti. From problem.
All right, yeah, that's fine. Yes, good. I should think that, yeah. Thank you.
Okay, so idaniyam bhitah itikte bhitah upayujya trini vakyani rachayamah va. Trini vakyani bhitah itikte upayujya. So using the word bhitah, three sentences.
Aham
sarve maranat भीताः सन्ति.
सर्वे मरणात् मरणात् भीताः सन्ति. उत्तमम्.
अहं शुनकात् भीतः अस्मि.
अहं शाकात् इत्युक्ते किम्?
कः मां?
न शृणोमि महोदय.
अहं सर्पात् भीतः अस्मि.
उत्तमम्. अहं सर्पात् भीतः अस्मि.
अहं शुनकात् भीतः अस्मि.
अहं शुनकात् भीतः अस्मि. उत्तमम् उत्तमम्. ओके अस्तु. ओके, अग्रे सरामः. कः पठति सूचना?
अहं पठामि. यदा रक्षणं भवति तदा यस्मात् रक्षणं प्राप्यते तस्य पञ्चमी विभक्तिः भवति. उदाहरणार्थं, देवः अपायात् मां रक्षितवान्. अपायात् मां रक्षितवान् सो मां यस्मात् रक्षणं मां is that word that will get the fifth
word.
Correct. Abhyasah, kaha kasmat kam rakshitavan iti adhah suchitam asti. Tadadharenu vakyani rachayat. Pathamam dattam asti Vishnuhu makarataha gajendram rakshitavan.
Samyak.
So Bhagini, one okay. question. Kaha kasmat kam rakshitavan. So kaha who, kasmat from whom, kam is what? Is that right?
Correct. Correct.
Okay.
Very good.
From whom? What?
So kaha vibhakti kim?
Kaha vibhakti is eka prathama vibhakti.
Prathama vibhakti. Kasmat?
Kaschat,
panchami.
Panchami vibhakti. Kam?
Dvitiya.
Dvitiya.
Dvitiya vibhakti. Uttam. Uttam. So tatra asti Vishnuhu. Kaha Vishnuhu. Saha Vishnuhu. Makarataha. Panchami vibhakti asti atva makarat. Tanantaram gajendraha gajendram rakshitavan iti asti. Okay,
adaha is adaha suchanam is here. Adaha is here.
Adaha is below.
Okay, below. Okay. Adaha below. Okay, gajendram rakshitavan. Okay,
astu pratima bhagini dvitiyam karoti va raja.
Yeah. राजा शत्रोः जनेभ्य रक्षितवान् सॉरी राजा शत्रोः जनान् रक्षितवान्
उत्तमं बहु उत्तमं राजा शत्रोः जनान् रक्षितवान् सम्यक् बहु सम्यक् ओके शीला भगिनी
रामः रावणात् सीता रक्षितवान् सीतां रक्षितवान्
आम् उत्तमम् उत्तमं रामः रावणात् सीतां रक्षितवान् इन्दिरा महोदय
बालकः अपायात् भगिनीं रक्षितवान्
उत्तमं बालकः अपायात् भगिनीं रक्षितवान् सूक्ष्मा भगिनी
आरक्षकाः चोरेभ्यः जनान् रक्षितवन्तः
उत्तमम् उत्तमम् आरक्षकाः चोरेभ्यः जनान् रक्षितवन्तः सम्यक् ओके मोहन् महोदय
ओके देवः कष्टानि भक्तः ओके देवः देवः कष्टीभ्यः
कष्टीभ्यः
कष्टीभ्यः भक्तं रक्षितवान्
उत्तमम् उत्तमं पुनः वदतु
देवः कष्टीभ्यः भक्तं रक्षितवान् भक्तानि रक्षित भक्तः
भक्तमेव भक्तं भक्तः भक्तं
ओके भक्तं रक्षितवान्
उत्तमम् उत्तमम् ओके इन्दु भगिनी न वदति चेत् कृपया म्यूट् मध्ये स्थापयतु
इन्द्रः ऐ वास् इन् द म्यूट् ऐ एम् जस्ट् ओपन् इट् इन्द्रः दानवाः देवाः इन्द्रः दानवेभ्यः देवान् रक्षितवान्
उत्तमम् इन्द्रः दानवेभ्यः देवाः देवान् रक्षितवान् ओके चित्र भगिनि
कृष्णः कौरवेभ्यः पाण्डवान् रक्षितवान्
उत्तमं कृष्णः कौरवेभ्यः पाण्डवान् रक्षितवान् ओके रक्षणम् उपयुज्य त्रीणि वाक्यानि रचयामः वा रक्षति उपयुज्य
can I do it?
First of all.
सैनिकाः सैनिकाः शत्रोः जनान् रक्षितवान्
उत्तमम् उत्तमं सैनिकाः शत्रोः जनान् रक्षितवान् इन्दु भगिनी करोतु
मम अग्रजः अपयः मम रक्षितवान्
अपायः किं भवति पञ्चविभक्ति
अपायात्
मां
मम
रक्षितवान् सम्यक्
मम शुनकः चोरेभ्यः रक्षितवान्
उत्तमम् मम शुनकः चोरेभ्यः रक्षितवान् इतोपि अस्ति वा ओके अस्तु
तदनन्तरम् अस्ति कः पठति सूचना
भगिनी वन् डौट् ऐ हेव् दट् भक्ताः वाट् इस् भक्ताः इट् इस् द प्लूरल् आफ् भक्तः इस् इट्
यस् भक्तः भक्ताः
ओके सो भक्ताः बिकम्स् भक्तम् इस् इट् इन् द्वितीया विभक्ति
भक्ताः बिकम्स् भक्तान्
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 भक्तः भक्तम्
भक्तः भक्तः सो दट् सेण्टेन्स् देवः कष्टेभ्यः भक्तान् रक्षितवान्
भक्तं द्वितीयविभक्ति एकवचनं
देवः देवं भक्तः भक्तम्
ओके बट् इट् इस् भक्ताः नो भगिनि
देवः इस् प्लूरल् इसन्ट् इट् एण्ड् भक्तः
देवः एकवचनमेव कः कस्मात् कम्
देवः इस् सिङ्ग्युलर् भक्तः इस् आल्सो वन् भक्ताः इस् प्लूरल् सो सिङ्ग्युलर् इस् भक्तः देवः सिङ्ग्युलर् भक्तः इस् सिङ्ग्युलर्
भक्ताः
नो इट्स् भक्ताः
न न भक्तः एव भक्तः एव तत्र अस्ति ओके ओके चिन्ता मास्तु भगिनि ओके नो वैट् अस्तु कः पठति सूचना अस्तु पठतु चित्र
बहिः आरभ्य ऋते पूर्वं परः इत्येतेषां शब्दानां प्रयोगे पञ्चमी विभक्तिः भवति उदाहरणं सः गृहतः बहिः गतवान् गुरुवासरतः आरभ्य मम ज्वरः देवात् ऋते कः भक्तं रक्षेत् सायङ्कालात् पूर्वं भवता आगन्तव्यं वैशाखाः चैत्रात् परः अभ्यासः आवरणे दत्तानां शब्दानाम् उचितैः पञ्चम्यन्तरूप्यैः रिक्तस्थलानि पूरयत्
ओके उत्तमं धन्यवादः भगिनि ओके तत्र अस्ति बहिः आरभ्य ऋते पूर्वं परः बहिः इत्युक्ते किम्
औट्सैड्
औट्सैड्
औट्सैड् उत्तमम् आरभ्य स्टार्टिङ्ग् ऋते
Without
or except. Without or except.
Yeah.
Purvam.
Before. Paraha?
After.
Without or except?
Without or?
Except.
External.
Except.
C-E-P-T.
C-E-P-T, Shamita.
Okay.
E-X-E-P-T.
Okay,
except. Okay. So, udaharanamasti. Saha gruhataha bahihi gatavan. Ittite kim?
He went outside the house.
He went outside from the house. Gruhataha gatavan. Tanantaram guru vasarataha arabhya mama jwaraha. Ittite kim?
My
fever started
from Thursday.
My fever started from Thursday. Guru vasarataha arabhya mama jwaraha. Devat rute kaha baktam rakshet.
Except God who will save the...
Who will go into protect.
Uttam. So this sentence is in passive voice. Devat rute kaha baktam rakshet. Yes, uttam. Okay. Sayankalat purvam bhavata agantavyam.
You must come before the evening.
Come before evening.
You should come before evening. Iti asti. Vaishakaha chaitrat paraha.
Vaishakaha.
Before chaitra.
After chaitra.
Uttam. Vaishakaha.
Chaitra.
Comes after chaitra.
Comes after Chaitraha. Okay. Uttamam. So, tadeva asti. Adanantaram abhyasa asti. Devalayaha bahihi bhaktaha santi. Devalayataha bahihi bhaktaha santi. Outside the temple is the devotees. Saralameva. Okay. Karishyamaha. Okay. Pratamam. Narsimhodaya karoti va?
Kimartam janaha karyalayataha bahihi stitaha
bahihi
stitaha drushyante karyalayataha.
Artamadati va?
Kimartam janaha karyalayam bahistita drushyate.
Kimartam ityukte kim?
Why people are standing outside? Bahistita drushyate, what they are seeing outside.
Yes. What are people standing and looking outside?
Standing outside outside karyalayam, outside office and
Uttam.
Karyalaya bhyayansa karyalayata.
Karyalayat.
Okay.
Ekaha karyalaya asti khalu, so ekavachanam.
The same thing, no? Karyalayataha or karyalayat?
Yes, same thing.
Okay.
Okay. Tanantaram Pratima Bhagini?
Yeah. Saptahat arabhya chatra sankhya nyuna asti. So, starting from the week, the number of students is less.
Uttam. Okay. तृतीयम् एमिरा महोदय
पठनतः पूर्वं भवान् उपहारं स्वीकरोतु बिफोर् रीडिङ्ग् यु टेक् दि स्नाक्स् स्नाक्स्
उत्तमम् उत्तमम् पठनतः पूर्वं भवान् उपाहारं स्वीकरोतु ओके सुषमा भगिनी
उत्थानात् परं भवती देवं नमस्करोतु बिफोर् सिटिङ्ग् यू दी दट् इस् द फिमेल् यू शुड् प्रे टु गाड्
ओके उत्थानम् इत्युक्ते किम्
उत्थानम् उत्थानम्
उत्तिष्ठति
ओके
गेट् अप् टु वेक् अप्
ओ ओके ओके सो परम् इस् आफ्टर् सो आफ्टर् वेकिङ्ग् यू गो आन् टु गाड् ओके
उत्तमम् उत्तमं सम्यक् सम्यक् भगिनि ओके मोहन् महोदय
आरक्षकः ऋते दृष्टं निग्रहीतुं कम्
कः
कः शक्रियात् आरक्षकात् ऋते दृष्टं निग्रहीतुं कः शक्रियात्
शक्नुयात् अर्थं जानाति वा
ऋते दृष्टं निग्रहीतुं न शक्नुयात् ऋते इस् दट् सीज़न् आर्
ऋते इस् लैक् इट्स् नाट् इति
चिन्तयतु आरक्षकः रैट् ऋते दृष्टुं संथिङ्ग् हि सीज़्
निगृहीतुं
दुष्टम् ओके ऋते दुष्टं ऋते दुष्टम् इस् बेड् निगृहीतुं ऋते इस् वाट्
इफ् नाट्
नो एक्सेप्ट् आर् विदौट्
यस् एक्सेप्ट् आर् विदौट्
ओ हौ विल् हि watch he cannot watch nigri
okay if not for the police then how will who will
watch
stop the bad report
we can
people
do
it
who will punish or who will stop the bad people who will stop the dushtam, the bad people. Hold back the bad people.
I think Bhagini Bhatwar makes more sense with Rupi.
Okay. Yeah. But for, if but for works better, then you can use that. But for, or if not the police, then who will?
Not but for, both.
Okay, Samit. Indu Bhagini?
Rute. डाश् अन्यः कोऽपि न उक्तवान् ऋते भवतः अन्यः कोऽपि एवं न उक्तवान् नोबडी सेड् एनिथिङ्ग् अपार्ट् फ्रोम् यू
उत्तमं सम्यक् तदनन्तरं चित्रा भगिनी
अस्याः क्रीडायां यः रेखायाः बहिः गच्छति सः बाह्याः भवति बाह्यः भवति इन् दिस् गेम् हूएवर् क्रासेस् द लैन् हूएवर् गोस् औट् आफ् द लैन् ईस् कन्सिडर्ड् औट्
उत्तमं सम्यक् ओके नर्सन् महोदय
सूर्योदयतः आरभ्य कृषिकः कार्यं करोति
सूर्योदय बिफोर् सन्रैस् आरभ्य कृषि द फार्मर् स्टार्ट् इस् वर्क् बिफोर् सन्रैस् स्टार्टिङ्ग् फ्रम् सन्रैस् सूर्योदय
सम्यक् समीचीनम् अस्तु प्रतिमा भगिनि भवान्
चयनात् पूर्वं सकृत् पाठं पठतु यु रीड् गुड् लेसन् बिफोर् स्लीपिङ्ग्
उत्तमम् ओके एमिरा महोदय
मूषकस्य निरतः बहिः मार्जारः स्थितः अस्ति दि केट् इस् वेटिङ्ग् औट्सैड् दि होल् आफ् दि रेट्
वेरि गुड् सम्यक् सूक्ष्मा भगिनी
उपदेशस्य श्रवणात् परं मम खेदः अपगतः उपदेशस्य so after listening to the upadesham my worries went away
very good samyak samyak okay antimam mohan mohdya
dash sorry apanah bahi apanat apanat bahi कानिचन वस्तूनि पतितानि सन्ति फ्राम् बहिः अधः बहिः औट्सैड् इन्सैड्
औट्सैड् औट्सैड्
औट्सैड् फ्राम् द स्टोर् कानिचन वस्तूनि हि बाट्स् स्टाप् फ्रम् द स्टोर्
न कानिचन मीन्स् सम् वस्तूनि वस्तूनि इत्युक्ते किं
थिङ्ग्स्
थिङ्ग्स् पतितानि पतितानि इत्युक्ते किं
फेल् ओके
यस् आर् फालन् सम् आब्जेक्ट्स् आर् फालन् औट्सैड् द स्टोर् इति ओके ओके कुत्रापि प्रश्नमस्ति वा ओके कः शान्तिमन्त्रं वदति